ప్రతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పద ఆనశృణ్వన్నోదిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజినీవతీ ధీనామవిత్రియవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోతగిషవే నమః నమస్తే అస్తు ధన్వని బాహుభ్యాముతతే నమః యాతగిషు శివతమా శివం బభూవతే ధనుః శివాచరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనోరఘోరా పాపకాశినీ తయానస్తను వాచంతమయా గిరిశంతాభిజాగసీ యామిషుం గిరిశంతహస్తేభిభక్ష్యస్తవే శివాంగిరిత్రతాం కురుమాహిగుంసి పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛావదామసి యథా నత్సర్వమిజ్జగత యక్ష్మగుంతుమనాసతే అధ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్ అహేగశ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః అసువ్యస్తామ్రో అరుణ ఉత బభ్రస్సు మంగళః ఏ చేమాగుం రుద్ర అభితో దిక్షశ్రితాత్సగస్రశో వైశాగుం హేడయీమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నుత హార్యః ఉతైనం విశ్వాభూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీఢుషేకే అధోగే అస్య సత్వానోహం తేభ్యో కరన్ నమః ప్రముంజ ధన్వనత్వముభయోరాత్మియోర్జ్యాం యాశ్చ దేహస్త ఇషవః పరాదా భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషుధే నిశీర్య శల్యాణాముఖా శివో న సుమనాభవ విజ్యం ధనుక్కపర్దినో విశల్యో బాణవాగుం ఉత అనేశన్నస్యేషవ ఆభురస్య నిజం గధిః యాతేహే ధర్మీ దుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వత త్వమయక్ష్మయా పరిభుజ నమస్తే అస్వాయుధాయానాతతాయ ధృష్ణవేకే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అధో యగిషుదిత్తవారే అస్మన్నిధేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రింబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః నమో హిరణ్యభాగవే సే నాన్యే దిశాంచ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః సత్కంజరాయత్యశీమతే పదేనాం పతయే నమో నమో బబ్లుషాయ వ్యాధినేన్నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టాణాం పతయే నమో నమో భవత్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తథా వినే క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమః కృష్ణ వేదాయ ధావతే సత్వనాం పతయే నమః నమస్తగమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుభాగ నిషంగిణేస్తేనానాం పతయే నమో నమో నిషంగిణగిషుధిమతే తస్కరాణాం పతయే నమో నమో వంజతే పరివంజతే తాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమ త్రికావిభ్యోజిగాగుంసద్భ్యో ముట్నదాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం జరద్భ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంజానాం పతయే నమో నమ గిషు మద్భ్యో దన్వా విభ్యశ్చవో నమో నమ ఆదన్వానేభ్య ప్రదిదధానేభ్యశ్చవో నమో నమ ఆగచ్చద్భ్యో విధృజద్భ్యశ్చవో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చవో నమో నమ ఆసీనేభ్యశ్చయానేభ్యశ్చవో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చవో నమో నమ తిష్టద్భ్యో ధావద్భ్యశ్చవో నమో నమ సభాభ్యసభాపదిభ్యశ్చవో నమో నమో అశ్వేభ్యోశ్వపదిభ్యశ్చవో నమః నమ ఆవ్యాధినీభ్యో వివిద్యంతేభ్యశ్చవో నమో నమ ఉగణాభ్య త్రిగుంహదేభ్యశ్చవో నమో నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చవో నమో నమో ప్రాతేకేభ్యో ప్రాతపదిభ్యశ్చవో నమో నమో గణేభ్యో గణపతిభ్యశ్చవో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చవో నమో నమో మహద్భ్యః తుల్లకేభ్యశ్చవో నమో నమో రథిభ్యో రథేభ్యశ్చవో నమో నమో రథేకేభ్యో రథపదిభ్యశ్చవో నమో నమ సేనాభ్యసేనానిభ్యశ్చవో నమో నమః క్షత్రభ్యసంగ్రహీతృభ్యశ్చవో నమో నమః తక్షద్భ్యోరథకారేభ్యశ్చవో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చవో నమో నమ ಪುಂಜಷ್ಟೇಗೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚವೋ ನಮೋ ನಮಗೆ ಶುಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚವೋ ನಮೋ ನಮೋ ಮೃಗಯೋಭ್ಯ ಶ್ವನಿಭ್ಯಶ್ಚವೋ ನಮೋ ನಮಃ ಶ್ವಭ್ಯಶ್ವಪದಿಭ್ಯಶ್ಚವೋ ನಮಃ ನಮೋ ಭವಾಗ್ಯ ಚ ರುದ್ರಾಗ್ಯ ಚ ನಮಃ ಚರ್ವಾಗ್ಯ ಚ ಪಶುಪತಗೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಗ್ಯ ಚ ಶಿತಿಕಂಠಾಗ್ಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ವ್ಯುಕ್ತಗೇ ಚಾಗ್ಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಗ್ಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಗ್ಯ ಚ ಶಿಪಿವಿಷ್ಟಾಗ್ಯ ಚ ನಮೋ ಮೇಢುಟ್ಟಮಾಗ್ಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಗ್ಯ ಚ ವಾಮನಾಗ್ಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೀಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಗ್ಯ ಚ ಸಂವೃದ್ವನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಗ್ಯ ಚ ಪ್ರಥಮಾಗ್ಯ ಚ ನಮ ಆಶವೇ ಚಾಚಿರಾಗ್ಯ ಚ ನಮ ಶೀಘ್ರಿಯಾಗ್ಯ ಚ ಶೇಭ್ಯಾಗ್ಯ ಚ ನಮ ಓರ್ಮ್ಯಾಗ್ಯ ಚ ವತ್ಸುನ್ಯಾಗ್ಯ ಚ ನಮ ಶ್ರೋತಸ್ಯಾಗ್ಯ ಚ ದ್ವೇಪ್ಯಾಗ್ಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಗ್ಯ ಚ ಕನಿಷ್ಠಾಗ್ಯ ಚ ನಮ ಪೂರ್ವಜಾಗ್ಯ ಚ ಪರಜಾಗ್ಯ ಚ ನಮೋ ಮಧ್ಯಮಾಗ್ಯ ಚ ಪಗಲ್ಭಾಗ್ಯ ಚ ನಮೋ ಜಗನ್ಯಾಗ್ಯ ಚ ಬುಧ್ನಯಾಗ್ಯ ಚ ನಮ ಸೋಭ್ಯಾಗ್ಯ ಚ ಪ್ರತಿಸದ್ಯಾಗ್ಯ ಚ ನಮೋ ಜ್ಞಾಮ್ಯಾಗ್ಯ ಚ ಕ್ಷೇಮ್ಯಾಗ್ಯ ಚ ನಮ ಉರ್ವರ್ಯಾಗ್ಯ ಚ ಘಲ್ಯಾಗ್ಯ ಚ ನಮ ಶ್ಲೋಕ್ಯಾಗ್ಯ ಚ ವಸಾನ್ಯಾಗ್ಯ ಚ ನಮೋ ವನ್ಯಾಗ್ಯ ಚ ಕಕ್ಷ್ಯಾಗ್ಯ ಚ ನಮ ಶ್ರವಾಗ್ಯ ಚ ಪ್ರತಿಶ್ರವಾಗ್ಯ ಚ ನಮ ಆಶುಷೇಣಾಗ್ಯ ಚಾಶುರಧಾಗ್ಯ ಚ ನಮ ಶೂರಾಗ್ಯ ಚ ವಭಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋಧಿನೇ ಚ ನಮೋ ವಿಲ್ಮಿನೇ ಚ ಕವಚಿನೇ ಚ ನಮ ಶ್ರುತಾಗ್ಯ ಚ ಶ್ರುತಸೇನಾಗ್ಯ ಚ ನಮೋ ದ್ವಂದ್ವಭ್ಯಾಗ್ಯ ಚ ಕನನ್ಯಾಗ್ಯ ಚ ನಮೋ ದೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಗ್ಯ ಚ ನಮೋ ದೂತಾಗ್ಯ ಚ ಪ್ರಖಿತಾಗ್ಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷುಧಿಮತೇ ಚ ನಮ ತೀಷ್ಣೇ ಚ ವೇ ಚ ಯುಧಿನೇ ಚ ನಮ ಸ್ವಾಯುಧಾಗ್ಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮ ತೃತ್ಯಾಗ್ಯ ಚ ಪಥ್ಯಾಗ್ಯ ಚ ನಮ ಕಾಟ್ಯಾಗ್ಯ ಚ ನೀಪ್ಯಾಗ್ಯ ಚ ನಮ ಸೋದ್ಯಾಗ್ಯ ಚ ಸರತ್ಯಾಗ್ಯ ಚ ನಮೋ ನಾದ್ಯಾಗ್ಯ ಚ ವೈಶಂತಾಗ್ಯ ಚ ನಮ ಕೋಪ್ಯಾಗ್ಯ ಚ ವಟ್ಯಾಗ್ಯ ಚ ನಮೋ ವರ್ಷ್ಯಾಗ್ಯ ಚ ವರ್ಷ್ಯಾಗ್ಯ ಚ ನಮೋ ಮೇಘ್ಯಾಗ್ಯ ಚ ವಿದ್ಯುತ್ಯಾಗ್ಯ ಚ ನಮ ಈದ್ರಿಯಾಗ್ಯ ಚ ತಪ್ ಪ್ಯಾಗ್ಯ ಚ ನಮೋ ವಾತ್ಯಾಗ್ಯ ಚ ರೇಷ್ಮಿಯಾಗ್ಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಗ್ಯ ಚ ವಾಸ್ತುಪಾಗ್ಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮ ಸೋಮಾಗ್ಯ ಚ ರುದ್ರಾಗ್ಯ ಚ ನಮ ತಾಮ್ರಾಗ್ಯ ಚ ಋಣಾಗ್ಯ ಚ ನಮ ಶಂಗಾಗ್ಯ ಚ ಪಶುಪತಗೇ ಚ ನಮ ಉಗ್ರಾಗ್ಯ ಚ ಭೀಮಾಗ್ಯ ಚ ನಮೋ ಅಗ್ರೇ ಪಧಾಗ್ಯ ಚ ದೂರೇ ಪಧಾಗ್ಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮ ತಾರಾಗ್ಯ ನಮ ಶಂಭವೇ ಚ ಮಯೋ ಭವೇ ಚ ನಮ ಶಂಕರಾಗ್ಯ ಚ ಮಯತ್ಕರಾಗ್ಯ ಚ ನಮ ಶಿವಾಗ್ಯ ಚ ಶಿವತರಾಗ್ಯ ಚ ನಮ ತೀರ್ಥ್ಯಾಗ್ಯ ಚ ಕೋಡ್ಯಾಗ್ಯ ಚ ನಮ ಪಾದ್ಯಾಗ್ಯ ಚ ವಾದ್ಯಾಗ್ಯ ಚ ನಮ ಪ್ರತರಣಾಗ್ಯ ಚೋತ್ತರಣಾಗ್ಯ ಚ ನಮ ಆತಾದ್ಯಾಗ್ಯ ಚ ಲಾದ್ಯಾಗ್ಯ ಚ ನಮ ಷಷ್ಪ್ಯಾಗ್ಯ ಚ ಭೇನ್ಯಾಗ್ಯ ಚ ನಮ ಸಿಕತ್ಯಾಗ್ಯ ಚ ಪ್ರವಾಕ್ಯಾಗ್ಯ ಚ ನಮ ಗಿರಣ್ಯಾಗ್ಯ ಚ ಪ್ರಪಥ್ಯಾಗ್ಯ ಚ ನಮ ಕುಂಚಿಲಾಗ ಚಕ್ಷಗಣಾಗ ಚ ನಮ ಕಪರ್ದಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಟ್ಯಾಗ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮ ಸಲ್ಪ್ಯಾಯ ಚ ಗೇಕ್ಯಾಗ ಚ ನಮ ಕಾಟ್ಯಾಗ ಜಗಕ್ವರೆಷ್ಠಾಗ ಚ ನಮೋ ಗೋ ಹೃದಯ್ಯಾಗ ಚ ನಿವೇಷ್ಟ್ಯಾಗ ಚ ನಮ ಪಾಗುಂ ಸವ್ಯಾಗ ಜರಜತ್ ತ್ಯಾಗ ಜನಮ ಶುಷ್ಕ್ಯಾಗ ಜಹರಿತ್ಯಾಗ ಜನಮೋ ಲೋಪ್ಯಾಗ ಜೋಲಪ್ಯಾಗ ಜನಮ ಓರ್ಭ್ಯಾಗ ಜಸೋರ್ಭ್ಯಾಗ ಜನಮ ಪರ್ಣ್ಯಾಗ ಜಪರ್ಣ ಸದ್ಯಾಗ ಜನಮೋ ಪಗುರಮಾಣಾಗ ಜಾಭಿಗ್ರತೆ ಜನಮ ಆಖಿದತೆ ಜಪ್ರಖಿದತೆ ಜನಮೋ ವತ್ ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗು ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೇನಗೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ಮತ್ಕೇಭ್ಯೋ ನಮ ಆನಿಹತೆಭ್ಯೋ ನಮ ಆಮೀವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸತ್ಪದೇ ದರಿದ್ರನ್ನೀಲಲೋಹಿತಾ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋ ಮೋಗೇಶಾಂ ಕಿಂಚನ ಮಮತೆ ಯಾತೇ ರುದ್ರ ಶಿವ ತನು ಶಿವ ವಿಶ್ವಾಕ ಭೇಷಜೀ ಶಿವ ರುದ್ರಸ್ಯ ಭೇಷಜೇ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಗೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಗೇ ಕ್ಷಯದ್ವೇರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮ ಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯತ್ಕೃತಿ ಕ್ಷಯದ್ವೇರಾಯ ನಮಸ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಚಯೋಶ್ಚ ಮನುರಾಗ ಜೇ ಪಿತಾ ತದಸ್ಯಾಮತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತ ಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತ ಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಾಮಾನಸ್ ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನಗೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರಭಾಮಿತೋ ವದೇರ್ ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತೆ ಗೋಗ್ರಮುತ ಪೂರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುನ್ನಮಸ್ಮೇತೇ ಅಸ್ತು ರಕ್ಷಾ ಜನೋ ಅಧಿಜ ದೇವ ಬ್ರೋಷದಾ ಜನ ಶಮ್ಮಯಚ್ಚ ದ್ವಿಪರುಹಾಕಾಶ ಸ್ತುಹಿ ಶ್ರುತಂ ಗತ್ತ ಸದಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ರುಮುಗ್ರಂ ಮೃಡಾ ಚರಿದ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೆ ಆತ್ಮನ್ನಿವ ಬಂಧು ಸೇನಾಕಾಃ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಘೇತಂ ವೃಣತ್ವ ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮದಿರಘಾಯೋ ಅವಸ್ಥಿರ ಭಗವದ್ಯಸ್ತನುಷ್ವಮೀಡ್ವತ್ತೋಕಾಯತನಯಾಗ ಮೃಡಯ ಮೀಢುಷ್ಟಮಜಿವತಮಜಿವೋ ನ ಸುಮನಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ಯಂ ವಸಾ ನಮಾಚರ ಬಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿತ ವಿಲೋಕಿತ ನಮಸ್ತೆ ಯತ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಬಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋತ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾ ಮುಖಾಕೃತೇ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ವಾನಿ ಧನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ನವೇಂದರಿಕ್ಷೇ ಭವಾ ಅಧೇ ನೀಲಗ್ರೀವಾ ಶಿತಿಕಂಠಾ ಚರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾ ನೀಲಗ್ರೀವಾ ಶಿತಿಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾ ಯೇ ವೃಕ್ಷೇಷು ಸತ್ಪಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾ ಸಕ್ಕಪರ್ದಿನಃ ये अन्येषु विविध्यन्ति पात्रेषु पिपतो जनान् ये पधाम् पदिरक्षय ऐलप्रदायव्युदः ये तेऽर्थाणि प्रजरन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्तिरे तेषागुंसहस्रयो जने वदन्मानि दन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शावन्नम् वातो वरुषमिषभ तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतीचेर्दशो दीचेर्दशोर्द्वात्तेभ्यो नमः तेनो मृडयन्तु तेयम् तिष्मो यच्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्रव्यो अप्सु य ओषधेषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यत्सृषस्तु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवत्स्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे ये विश्वभेषजो यगो शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ
अग्नाविष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्छ मे धनम् च मे वशश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे ಇಚ್ಛಂಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಯಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸ್ವೀರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಅಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ಊರ್ಚ ಮೇ ಸೋನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧು ಚ ಮೇ ಸಗ್ಧಿಶ್ಚ ಮೇ ಸಪೀತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮ ಔದ್ಭಿದ್ಯಂ ಚ ಮೇ ರಯಿಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಚ ಮೇ ಪ್ರಭುಚ ಮೇ ಬಹುಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಪೂಯವಾಶ್ಚ ಮೇ ನಂಚ ಮೇ ಶುಚ್ಚ ಮೇ ವ್ರೀಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ಗಾಶ್ಚ ಮೇ ಖಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇಳವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನೀವಾರಾಶ್ಚ ಮೇ ಅಶ್ಮಾಚ ಮೇ ಮೃತ್ತಿಕಾಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಕತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಶ್ರೀಶಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರುಧಶ್ಚ ಮ ಓಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಏಮಶ್ಚ ಮ ಇತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೌ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಗುಂಶುಶ್ಚ ಮೇ ರಶ್ಮಿಶ್ಚ ಮೇಧಾಭ್ಯಶ್ಚ ಮೇಧಿಪತಿಶ್ಚ ಮ ಉಪಾಗುಂಶುಶ್ಚ ಮೇ ಅಂತರ್ಯಾಮಶ್ಚ ಮ ಐಂದ್ರವಾಯವಶ್ಚ ಮೇ ಮೈತ್ರಾವರುಣಶ್ಚ ಮ ಆಶ್ವಿನಶ್ಚ ಮೇ ಪ್ರತಿಪ್ರಸ್ಥಾನಶ್ಚ ಮೇ ಶುಕ್ರಶ್ಚ ಮೇ ಮಂಥೇ ಚ ಮ ಆಗ್ರಯಣಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಧ್ರುವಶ್ಚ ಮೇ ವೈಶ್ವಾನರಶ್ಚ ಮರುತು ग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृश्च म आधवनीयश्च म आग्नीर्धं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे प्रभृदश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेतिथिश्च मे तिथिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रुश्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोः वृष्ट्या बृहत्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्टवाच्च मे पष्टौहि च मुक्षा च मे वशा च मरुषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्त सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकविगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडारे बहोर्मनुर्यज्ञने बृहस्पतिरुक्तामदानि सगुं त्रिषद्विश्वे देवासोक्तवाच पृथिवीमातर्मामाहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरो नु मदन्तु। ॐ शान्ति 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 ॐ तच्छयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शरन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति 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 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यधिष्ठदशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनातिरोहति एतावानस्य महिमा अतोज्जायादुश्च पोरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोद्वौदैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत स्वाशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिदः कृताः देवायज्ञम् तन्वानाः अभद्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रदः तेन देवा अयजन्त साध्यार्षयश्चरे तस्मात् यज्ञात् सर्वहुतः संवृतम् प्रषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्चरे तस्मात् यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदलुः कदिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादा उच्येते ब्राह्मणो अस्य मुखमासीत् बाहोराजन्यकृतः ऊरो तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यो समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्र प्रविद्वान् प्रतिश्च तस्रः तमेवं विद्वान् अमृत इह भवति नान्यपन्थ अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यः सम्बोध पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदलद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मी सपत्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनो व्यात्तम् इष्टम् मनिषाणा अमम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 ॐ अत्रिणात्वा कृमे हन्मे कर्णेन जमदग्निना विश्वावधोर्ब्रह्मणा हरः कृमीनागुम् राजा अप्येषागस्थपतिर्हरः अधो माताधो पिता अधो स्थूला अधो क्षुद्रा अधो कृष्णा अधो श्वेता अधो आशातिका हता श्वेताभिः सह सर्वे हता आहरावद्य धृतस्य हविषो यदा तत्सत्यम् यदमय्यमस्य जम्भयोः आदधामि तदा हि तत् खण्भन्नसि ॐ शान्ति शान्ति शान्तिः ॐ न सदासीं नो सदासीत् तदानीम् नासीद्रजो नो व्योमा परोयते किमावलिव कुहकस्य शर्मन् अम्भ किमासीद्गहनम् गभीरम् न रात्युरमृतम् तर्हि न रात्र्या अन्न आसीत् प्रकेतः
ఆనీతవాదగ్గస్వదయా తదేకం తస్మాద్ధాన్యన పరక్కించనాస తమ ఆసీత్తమసా గూఢమగ్రే ప్రగేతం సలిలగుం సర్వమాగిదం తుచ్ఛేనాంబవిహితం యదాసీత్ తమసత్తమ్మనునా చాయతైకం కామస్తదగ్రే సమవర్తతాతి మనసోరేద ప్రథమం యదాసీత్ సదో బంధుమదతి నిరవిందన్ హృది ప్రదేశ్యా కవయో మనీషా తిరశ్చీనో విదతో రశ్మిరేషా అతస్విదాసీత్ దుపరిస్విదాసీత్ రేదోదాసన్ మహిమాన ఆసన్ స్వధా అవస్థాత్ ప్రయతి పరస్తాత్ కో అద్ధా వేదగ ఇహ ప్రవోచతే కుత ఆజాతా కుత ఇయం విసృష్టిః అర్వాగ్దేవా అస్య విసర్జనాయ అధా కో వేద యద ఆబభూవ ఇయం విసృష్టిర్ యద ఆబభూవ యది వాదతే యది వానా యో అస్యాధ్యక్ష పరమే వ్యోమన్ సో అంగవేద యది వానవేద ఓం శాంతి 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 ఓం సహనాభవతు సహనో భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి శాంతి శాంతిః భృగుర్వై వారుణిః వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతే తస్మాయేతత్ ప్రోవాచ అన్నం ప్రాణం చక్షుశ్రోత్రం మనోవాచమితే తగుంహోవాచ యతో వా ఇమాని భూతాని జాయంతే ఏన జాతాని జీవంతే యత్ప్రయంత్యభితం విశంతే తద్విజిజ్ఞాసస్వ తద్బ్రహ్మేతే సతపోతప్యత సతపస్తత్వ అన్నం బ్రహ్మేతి వ్యజానాత్ అన్నాధ్యేవ ఖల్విమాని భూతాని జాయంతే అన్నేన జాతాని జీవంతే అన్నం ప్రయంత్యభితం విశంతే తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతే తగుంహోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతే సతపోతప్యత సతపస్తత్వ ప్రాణో బ్రహ్మేతి వ్యజానాద్ ప్రాణాధ్యేవ ఖల్విమాని భూతాని జాయంతే ప్రాణేన జాతాని జీవంతే ప్రాణం ప్రయంత్యభిదం విశంతే తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అదేకి భగవో బ్రహ్మేతే तगुं होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेते सतपोतप्यता सतपस्तप्त्वा मनो ब्रह्मेति व्यजानात् मनसोऽख्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ते मन प्रयन्त्यभिधम् विशन्ते ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अदेहि भगवो ब्रह्मेति तगुं होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा विज्ञानम् ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ते विज्ञानम् प्रयन्त्यभिधम् विशन्ते ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधेहि भगवो ब्रह्मेति तगुं होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ते आनन्दम् प्रयन्त्यभिधम् विशन्ते ते सैषा भार्गवे वारुणी विद्या परमे व्योमन् प्रतिष्ठिता य एवम् वेद प्रतिष्ठते अन्नवानन्नादो भवते महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेना महान् कीर्त्या अन्नम् न निन्द्यात् तद्व्रतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणप्रतिष्ठितः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेना महान् कीर्त्या अन्नम् न परिचक्षेत तद्व्रतम् आपो वा अन्नम् ज्योतिरन्नादम् अप्सु ज्योतिप्रतिष्ठितम् ज्योतिश्याप प्रतिष्ठिताः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेना महान् कीर्त्या अन्नम् बहुकुर्वीत तद्व्रतम् पृथिवी वावन्नम् आकाशोऽन्नादः पृथिव्यामाकाश प्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेना महान् कीर्त्या न कञ्चन वसतौ प्रत्याचक्षेत तद्व्रतम् तस्माद्यया कयाच विदया बह्वन्नम् प्राप्नुयात् अराध्यस्मा अन्नमित्याचक्षते एतद्वै मुगतोऽन्न गुम्राद्धम् मुगतोऽस्मा अन्न गुम्राध्यते एतद्वै मध्यतोऽन्न गुम्राद्धम् मध्यतोऽस्मा अन्न गुम्राध्यते एतद्वान्ततोऽन्न गुम्राद्धम् अन्ततोऽस्मा अन्न गुम्राध्यते यगेवम् वेद क्षेमगिति वाचे योगक्षेमगिति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषी समाज्ञाः अददैवीः तृप्तिरिति वृष्टौ बलमिति विद्युते यशगिति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्दयित्युपस्ते सर्वमित्याकाशे तत्प्रतिष्ठेत्युपाधीत प्रतिष्ठावान् भवति तन्महगित्युपासीत महान् भवति तन्मनगित्युपासीत मानवान् भवति तन्नमगित्युपासीत नम्यन्ते एस्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मणः परिमरयित्युपासीत पर्येणम् म्रियन्ते द्विषन्तः सपत्नाः पर्ये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्चादावादित्ये स एकः स य एवंवित् अस्माल्लोकात् प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्निकामरूप्यनुसञ्चरन् एतत्सामगायम् नास्ते अहमन्नमहमन्नमहमन्नम् अहमन्नादो ओहमन्नादो ओहमन्नादः अहग्श्लोककृदहग्श्लोककृदहग्श्लोककृत् अहमस्मि प्रथमजारदास्याम् पूर्वम् देवेभ्यो अमृतस्य नाभये यो मा ददाति सै देवमावः अहमन्नमन्नमदन्तमाद्मे अहम् विश्वम् भुवनमभ्यभवाम् सुवर्णज्योतेः य एवम् वेद इत्युपनिषत् सहना भवतो सहनौ भुनक्तो सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यच्युभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः